मैरमग्नेविदहोमाभिषो ओजोमास्यत्वजम् चिक्षिपो मा शरीरम् यदा श्रुतम् कृणवो ओजातमेतोऽथे मेनम् प्रहिणुतात् पितृभ्यः श्रुतम् यदा कनसि जातमेतोऽथे मेनम् परिदत्तात् पितृभ्यः यदा गच्छात्यसुनीतिमेतामथा देवानाम् वशनीर्भवादि सूर्यम् चक्षुर्गच्छतु वातमात्माद्याम् च गच्छ पृथिवीम् च धर्मणा अपोवा गच्छ यदि तत्र देहितमोषधेषु प्रतिष्ठा शरीरैः अजो भागस्तव सातन्तव स्वतन्ते शौचिस्तव दुदन्ते अर्चिः यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनम् सुकृतावलोकम् अवसृज पुनरग्ने पितृभ्योजस्त आहुतश्चरति स्वधाभिः आजुर्वसा न उपवेदशेषः सङ्गच्छतान् तन्वा जातवेदः यत्ते कृष्णस्य पुन आतुतोदपि बीलः सर्प उत बाश्वापदः अग्निष्टद्विश्वादगतम् कृणोद सोमश्चजो ब्राह्मणाम् आविवेश अग्नेर्वर्म परिगोभिर्व्ययस्वसम्प्रोर्णश्वपीव सा मेधसा च नेत्वा धृष्टरहरसादर्हषाणो दधृग्विधक्षन् पर्यङ्खयात् इममग्ने चमसम् मा विजिः परः प्रियो देवानामुदसाम्यानाम् एष यश्च वसो देवपानस्तस्मिन् देवा अमृता मादयन्ते क्रव्यादमग्निम् प्रहिणोमि दोरञ्जमराज्ञो गच्छतु रिप्रवाहः इहैवाजमितरो जातवेदा देवेभ्यो हव्यम् वहतु प्रजानन् यो अग्निः क्रव्यात्प्रविवेशवो गृहमिमम् पश्यन्नितरम् जातवेदसम् तम् हरामि पितृयज्ञाय देवम् स घर्ममिन्वात्तरवे सदस्थे यो अग्निः क्रौजवाहनः पितरान्यक्षधृतावृधाः प्रेतहव्यानि वोचति देवेभ्यश्च पितृभ्य आ उषन्तस्तानिधेमह्युषन्तस्य मि धेमहि उषन्नुषद आवह पितरान् हविषे अत्तवे यन्तमग्ने समदहस्तमनिर्वापया पुनाः किजाम् वत्र रोहतुपाकजोर्वाव्यल्कषा शीतिके शीतिकावति ह्लादिके ह्लादिकावति मण्डोक्या आसुसङ्गम इमम् स्वा अग्न्यम् हर्षया